इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्य वार्ताः। लोकसभा निर्वाचनस्य पञ्चमचरणाय प्रचाराभियानं सजवं प्रवर्तते। शीर्षनेतारः एकस्यानन्तरम् अपरः इति रीत्या सभाः कुर्वन्तः सन्ति। ओडिशायां नैर्वाचनिक प्रचारोपक्रमे हिंसायां एकः भाजपा कार्यकर्ता मृतः, अष्टौ च गंजममण्डले संघर्षे व्रणिताः। झारखण्ड ग्रामीण विकास मन्त्री आलमगीर आलम इत्यमं पर्यवीक्षायै निविदा आयोगीय भ्रष्टाचार प्रकरणे प्रवर्तन निदेशालयेन निगडितः। माता वैष्णोदेवी श्राइन बोर्ड इत्यनेन घोषितं यत् प्रायशः जून मासे जम्मूतः सांझी छत पर्यन्ताय उदग्र वायुयान सेवा आरभते। भारतीय पादकन्दुक क्रीडायाः दिग्गजः क्रीडकः सुनील छेत्री राष्ट्रिय दलेन सह विशिष्टं क्रीडाजीवनं यापनानन्तरं क्रीडानिवृत्तेः घोषणां कृतवान्। अपि च आईपीएल क्रिकेट क्रीडा मालिकायाम् अद्य सायंकाले हैदराबाद नगरे सनराइजर्स हैदराबाद दलं गुजरात टाइटन्स इत्यनेन सह क्रीडिष्यति। अथ वार्ताः विस्तरेण। सामान्य लोकसभा निर्वाचनाय प्रचाराभियानं सजवं प्रवर्तते। यतोहि शीर्षनेतारः पञ्चमचरणीय मतदानाय एकस्थानानन्तरं अपरः इति रीत्या सभारताः सन्ति। अस्मै चरणाय प्रचाराभियानं शनिवासरे समाप्तिं यास्यति। उत्तरप्रदेशे च जनान् आकर्षयितुं विभिन्नानां दलानां नेतारः तारकप्रचारकाश्च पूर्णबलेन सन्नद्धाः सन्ति। एतन्मध्ये प्रधानमन्त्री उक्तवान् यत् सीएए इति साम्प्रतिकं जाज्वल्यमानं प्रकरणमस्ति, यद्धि मोदिनः संकल्पस्य उदाहरणभूतमस्तीति। सहैव हि अद्य कांग्रेसदलस्य नेत्री प्रियंका गांधी वाड्रा, समाजवादी पार्टीति दलस्य अखिलेश यादवादयः अपि प्रचाररताः सन्ति। ओडिशा प्रदेशः उच्चस्तरीय प्रचाराभियानस्य प्रात्यक्षं करोति, यत्र सम्भावितानां चरणत्रयाणां कृते प्रचाराभियानं सजवं प्रवर्तते। एतन्मध्ये हिंसायाः अपि घटना समागतास्ति, यत्र गंजमजनपदे भाजपेति दलस्य एकः कार्यकर्ता मारितः, अष्टौ च व्रणिताः। विवादस्य मूले प्रचारपत्रस्य संश्लेषणमधिकृत्य समुत्थितो विवादः कारणमस्तीति उच्यते। प्रदेशेऽस्मिन् जेपी नड्डा, नवीन पटनायकादयः वरिष्ठनेतारः प्रचाररताः सन्ति। झारखण्डस्य ग्रामीण विकास मन्त्री आलमगीर आलमः श्वः प्रवर्तन निदेशालयेन निगडितः। तदनन्तरम् अद्य पीएमएलए इति धनशोधन निवारण विधेः न्यायालये प्रस्तुतः। श्वः आरभ्य तस्य षड्दिनानां पर्यवेक्षणान्वेषण अवधिः न्यायालयेन अनुमोदितः। जम्मूकश्मीरे अल्पावधे विशेष दर्शनस्य इच्छुक तीर्थयात्रिभ्यः सुविधादानाय वैष्णोदेवी तीर्थ बोर्ड इत्यनेन पूर्वमेव घोषितं यत् सम्भवतः जून मासे जम्मूतः सांझी छत पर्यन्तं उदग्र वायुयान सेवाम् आरभते। केन्द्रशासित प्रदेशस्य देहल्याः मुख्यमन्त्री, आम आदमी पार्टीति दलस्य नेता च अरविन्द केजरीवालः अद्य भाजपेति दलस्योपरि वाचिकाक्रमणं कुर्वन् अवोचत् यत् काषायदलीयाः वदन्ति यत् तेभ्यः निर्वाचनेऽस्मिन् चतुश्शताधिकानि लोकसभा आसन्दानि अपेक्ष्यन्ते इति, यतोहि ते संविधानं परिवर्तयितुम् इच्छन्ते, आरक्षणञ्च समापयितुम् इच्छन्ते इति। सः अद्य लखनऊनगरे समाजवादी पार्टीति दलाध्यक्षेण अखिलेश यादवेन सह संवाददातृसम्मेलनं सम्बोधयन् आसीत्। श्री केजरीवालेन उक्तं यत् भाजपा आरएसएस च इत्येतयोः पूर्णतन्त्रं सर्वदैव आरक्षणविचारस्य विरोधे आसीत्। तेन जनाः सञ्चेतिताः यत् भाजपेति दलं संविधानस्य परिवर्तने रुचिं धत्ते इति। संवाददातृभिः समं भाषमाणः अखिलेश यादवः अवोचत् यत् भाजपेति दलं भ्रामकं दलमस्तीति। तेनोक्तं यत् जनाश्च अवगतवन्तः, अतः ते दलमिमं न स्वीकरिष्यन्तीति। एनडी इत्याख्यः वैपक्षिक संघोऽयं संविधानेन सह जनसामान्यानां मूलभूत आवश्यकतानां च रक्षणाय अस्तीति अपि सः उक्तवान्। संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.com इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। सूचना प्रसारण मंत्री अनुराग सिंह ठाकुर विंशतिं प्रतिविंशति विश्व प्रतिस्पर्धा चतुर्विंशत्यधिक द्विसहस्र वर्षस्य समये भारतीय सांकेतिक भाषायाः श्रव्य वर्णनात्मक टिप्पणीं च प्रदातुं इंडिया साइनिंग हैंड्स प्राइवेट लिमिटेड इत्यनेन सह अनेकानां निजी क्रीडा प्रसार माध्यमैः सह कार्याय प्रशंसाम् अकरोत्। सामाजिक माध्यमेषु एकस्मिन् संदेशे सः अवदत् यत् समावेशितायाः कृते सर्वकारस्य दृष्ट्या च एतत् महत्वपूर्णं सोपानम् अस्ति इति। उत्तराखण्डराज्ये तीर्थयात्री पंजीकरणं विना चारधाम यात्रा इति न कर्तुं शक्यते। बाधादिषु विन्दुषु कठोरपरीक्षणं भविष्यति। पंजीकरणं विना जनाः तीर्थयात्रायै न गन्तुं शक्नुवन्ति। प्रदेशस्य मुख्य सचिव राधा रतुड़ी इत्यनया उक्तं यत् चारधाम यात्रायाः पंजीकरण प्रक्रियायाः विषये स्वस्वराज्यात् आगच्छन्तः तीर्थयात्रिकाः अवगताः भवेयुः। इस्राइल देशस्य प्रधानमन्त्रिणा बेंजामिन नेतन्याहू इत्यनेन दक्षिणी गाजा नगरे चतुर्णां हमास सैन्यदलानां नाशस्योपरि बलं ददता प्रोक्तं यत् राफा इत्यत्र सैन्याक्रमणस्य विषयः कतिपय सप्ताहानाम् अस्ति, न हि मासानां वर्षाणां वा। श्री बेंजामिनेन एकस्मै अमेरिका देशस्य प्रसारकाय प्रदत्ते साक्षात्कारे प्रोक्तं यत् इस्राइल अमेरिका देशयोर्मध्ये कतिपय विषयेषु असहमतिः अस्ति, परं यदा कदा भवता तदेव कर्तव्यं भवति यद्धि भवतः अस्तित्व भविष्ययोः सुनिश्चयाय आवश्यकं भवतीति। स्लोवाक प्रधानमन्त्री श्री रॉबर्ट फिको व्रातिस्लावा क्षेत्रस्य ऐशान्य दिशः लघुनगरे गोलिका प्रहारेण व्रणितोऽस्ति। चिकित्सालये च सः उपचाराधीनः अस्ति। गतसन्ध्यायां रक्षामन्त्रिणा रॉबर्ट कलीन केन प्रोक्तं यत् श्री फिको त्रिहोराधिककालात् शल्योपचाराधीनः आसीत्, स्थितिश्च गभीरा आसीदिति। उपप्रधानमन्त्रिणा टॉमस तारावा इत्यनेन प्रोक्तं यत् एकोनषष्टिवर्षीयः नेता सम्प्रति जीवनाय संकटास्पदकाले नास्तीति। दक्षिण पश्चिम दिग्देशीया वर्षा ऋतुः अस्य मासस्य दिनान्तं यावत् केरलप्रदेशं प्राप्तुं शक्नोति। तत्र चतुर्णां दिवसानां मानकविचलनस्य सम्भावना वर्तते। भारतीय ऋतुविज्ञानविभागेन प्रोक्तं यत् अस्याः वर्षार्तोः भारतस्य मुख्यां मध्यभूमिञ्च प्रापणेन अस्मात् उष्णशुष्कयोः वातावरणात् मुक्तिपूर्वकं वर्षायाः संकरणमपि भविष्यतीति। गतवर्षे इयं वर्षा जूनमासस्य अष्टदिनांके आगता आसीत्। ऋष्टिप्रक्षेपकः ओलम्पिकक्रीडाश्रेष्ठः नीरज चोपड़ा इत्यनेन ह्यः भुवनेश्वरे अस्य वर्षस्य फेडरेशन कप इत्यस्यां स्पर्धायां स्वर्णपदकं विजितम्। षड्विंशतिवर्षीयाय तारकक्रीडकाय प्रतियोगितायाः प्रारम्भिककालः संघर्षपूर्णः आसीत्, यतोहि त्रिषु चक्रेषु सः द्वितीयस्थाने आसीत्, परं अन्तिमे चक्रे 0.7027-82 मीटरात्मकं दूरं यावत् ऋष्टिप्रक्षेपेण सः स्वर्णपदकम् अलभत्। भारतीय पादकन्दुकक्रीडायाः दिग्गजः क्रीडकः सुनील छेत्री राष्ट्रियदलेन सह विशिष्टं क्रीडाजीवनं यापनानन्तरं निवृत्तेः घोषणां कृतवान्। एकस्मिन् सामाजिक प्रसारक तन्त्रजाले छेत्री इत्यनेन प्रकटितं यत् अस्मिन् वर्षे कोलकातानगरस्य साल्टलेक क्रीडाङ्गणे कुबाल्ट दलं विरुध्य 16 जून दिनांके आगामी क्रीडा तस्य अन्तिम प्रदर्शनं भविष्यतीति। आईपीएल इत्येतस्यां क्रिकेट प्रतिस्पर्धायां गतदिने समायोजिते द्वन्द्वे पंजाब किंग्स इत्येतेन दलेन राजस्थान रॉयल्स इति दलं 5 स्तोभपुरस्सरं पराजितम्। गुवाहाट्यां क्रीडिते एतस्मिन् द्वन्द्वे प्रथमं दण्डेन क्रीडयता राजस्थान रॉयल्स इति दलेन 44.1 धावनांकाः समर्जिताः। प्रत्युत्तरे पंजाब किंग्स इति दलेन सहजतया एव धावनांकान् समर्ज्य लक्ष्यं समधिगतम्। प्रतिस्पर्धायाम् अद्य सनराइजर्स हैदराबाद गुजरात टाइटन्स इत्यनयोः दलयोः मध्ये स्पर्धा हैदराबादस्थे राजीव गांधी अन्ताराष्ट्रिय क्रिकेट क्रीडाङ्गणे समायोजयिष्यते इति वार्ताः।